इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे अथ वार्ताः प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना द्वयोः देशयोः सहकार्यं गहनं कर्तुं क्रियमाणप्रयत्नस्य भागरूपेण मंगोलियादेशस्य सीमासुरक्षाबलानां कृते नूतनः क्षमतानिर्माणकार्यक्रमः घोषितः श्रीमोदिना ह्यः नवदिल्लीनगरे द्विपक्षीय प्रतिनिधिमण्डलस्तरस्य वार्तालापं कृत्वा मंगोलियादेशस्य राष्ट्रपतिना खुरेलसुख उखना इत्यनेन सह संयुक्ते पत्रकारसम्मेलने एतदुक्तम् प्रधानमन्त्री मोदी उक्तवान् भारतेन मंगोलिया नागरिकाणां कृते निःशुल्क ई वीजा प्रदानस्य निर्णयः कृतः श्रीमोदी अवदत् यत् भारतस्य 1.7 अर्बुद अमेरिकी डॉलरस्य रूपरेखया निर्मिता तैलशोधनपरियोजना मंगोलियादेशस्य ऊर्जासुरक्षायां नूतनं प्रवर्धनं प्रदास्यति प्रधानमन्त्री अथ वरिष्ठभाजपानेता श्रीनरेन्द्रमोदी अद्य दलस्य बूथस्तरीय कार्यकर्तृभिः सह अन्तरक्रियाशीलसत्रेण सह बिहारविधानसभानिर्वाचनार्थं स्वस्य अभियानस्य आरम्भं करोति मेरा बूथ सबसे मजबूत अभियानस्य अन्तर्गतं श्रीमोदी दलस्य कार्यकर्तृभिः सह संवादं करिष्यति एनडीए गठबन्धनस्य घटकदलेषु भाजपादलेन बिहारविधानसभानिर्वाचनार्थम् 170 अभ्यर्थीनां प्रथमा सूची प्रकाशिता अस्ति एनडीए इत्यस्य अन्यः सहयोगी हिन्दुस्तानी आवाम मोर्चा इत्यनेन अपि राज्यविधानसभानिर्वाचनार्थं 6 अभ्यर्थीनां सूची प्रकाशिता अपरत्र विपक्षे सीपीआईएमएल मुक्तिदलं राज्यसभानिर्वाचनार्थं 18 अभ्यर्थीनां सूची अप्रकाशयत् अधुनापि राष्ट्रिय जनता दलस्य कांग्रेस पक्षस्य च आसन सहभागविषये कोऽपि प्रगतिः न अभवत् 43-200 सदस्यीयस्य बिहार विधानसभा निर्वाचनस्य कृते आगामी मासस्य 6 अथ 11 दिनांके च द्वयोः चरणयोः निर्वाचनं भविष्यति मतगणना नवम्बर 14 दिनांके भविष्यति राजस्थाने जैसलमेर समीपे ह्यः एका दुःखद मार्गदुर्घटना अभवत् वायुनियन्त्रित शयन लोकयाने अग्निना दह्यमाने सति 20 जनाः मृताः अन्ये च अनेके जनाः तीव्रतया व्रणिताः सन्ति जैसलमेर जोधपुर राजमार्गे अपराह्ने 3:30 समीपे एषा घटना अभवत् समाचारानुसारं बसयानस्य अन्तः एव 29 यात्रिकाः दग्धा अभवन् उपचारकाले एकः जनः मृतः जातः पोकरणस्य विधायकः श्रीप्रतापपुरी माध्यमद्वारा पुष्टिं कृतवान् यत् अस्यां घटनायां 20 जनानां प्राणाः गताः सन्ति यस्याः कारणं शॉर्ट सर्किट इति मन्यते दुर्घटनासमये 50 अधिकाः जनाः याने आसन् 15 यात्रिकाः घातिताः सन्ति येषु बहवः 70% यावत् तीव्रदग्धाः अभवन् घातितानां चिकित्सायै जोधपुरनगरस्य महात्मा गान्धी चिकित्सालये प्रवेशः कृतः अस्ति मुख्यमन्त्री भजनलाल शर्मा ह्यः सायंकाले दुर्घटनास्थलं गतवान् अनन्तरं जोधपुरचिकित्सालये आहतानां सन्दर्शनमपि कृतवान् राष्ट्रपतिः द्रौपदी मुर्मू सामाजिक माध्यम मञ्चे एक्स इत्यत्र स्वस्य दुःखं प्रकटितवती सा शोकग्रस्तपरिवारेभ्यः गभीराः शोकसंवेदनाः प्रकटितवती घातितानां शीघ्रं स्वस्थतायै च प्रार्थनां कृतवती प्रधानमन्त्री श्रीनरेन्द्रमोदी दुःखद घटनायाः विषये अतीव दुःखं प्रकटितवान् घातितानां शीघ्रं स्वस्थतायाः च कामनाम् अकरोत् केन्द्रसर्वकारेण मृतानां निकटजनानां कृते 2 लक्षम् आहतानां कृते 50,000 रूप्यकाणाम् अनुग्रहराशिः घोषितः अस्ति उत्तरप्रदेशमुख्यमन्त्री योगी आदित्यनाथः प्रधानमन्त्री उज्ज्वलायोजना इत्यस्य अन्तर्गतं राज्ये महिलालाभार्थिभ्यः अद्य निःशुल्कं एलपीजी सिलिण्डरद्वयं पुनर्भरणं कारयित्वा प्रदास्यति अनेन राज्ये 1.68 कोटिमहिलानां कृते दीपावलि उत्सवस्य व्ययलाघवः प्राप्तः नूतना योजनायाः अन्तर्गतं प्रतिवर्षं चरणद्वये 2 निःशुल्कौ एलपीजी पुनर्पूर्णौ वितरितौ भविष्यतः अन्ताराष्ट्रिय महिला एकदिवसीय विश्वकप क्रिकेट क्रीडायां श्रीलंका न्यूजीलैंड देशयोः मध्ये क्रीडा वर्षया बाधिता इति वार्ताः